नमस्कार, अद्य सिद्धान्तकौमुद्याः अनन्तपुल्लिङ्गप्रकरणे षष्ठः पाठः, आगस्ट् मासस्य 30 दिनाङ्कः. एनाक्षरसमां नायम् अभिगम्योहेश्वरा व्याकरणं प्रोक्तं तस्मै पाणिनीये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्य मुनिश्चयम् मुनिस्वयन्नमस्कृत्य तदुत्तीश्वरिभाग्य च वैयाकरणसिद्धान्तकौमुदीयं विरच्यते. इदं शब्दः, इदं शब्दस्य विषये किं किम् अधीतमिति किञ्चित् पश्यामः. अकारान्तः लिङ्गः, तस्य प्रत्ययपरे इदं तिष्ठते, मकारस्य स्थाने मकारादेशः, ततः इदः स्थाने अयादेशः, तेन अयम् इति रूपम्. अन्यत्र जगादीनामः इत्यनेन अस्तु सर्वनामसमया अस्ति इदं शब्दस्य सर्वादिगणपाठस्य फलात्. तेन जगादीनामः इत्यनेन अस्तुं दश्च इत्यनेन दकारस्य मकारादेशः, तेन इमौ इमे इमौ इमौ इमान् इत्यादीनि रूपाणि. तृतीयाविभक्तेः आरभ्य अजादिषु विभक्तिषु अनाप्यकः इत्यनेन इद् इत्यस्य स्थाने अनु इत्यादिषु अभवत्. अजादिः विभक्तिः नाम विभक्तिद्वयमेव लक्ष्यते तृतीयातः. एकं तु ता इत्यत्र आ इत्यस्ति, तस्य इनादेशेपि इ इति अजादिरेव. पुनः ओट् एतौ एते द्वे एव विभक्तिः यत्र अजादित्वं लभ्यते, तत्र अनादेशे कृते अनेन अनयोः इति रूपम्. अन्यत्र सर्वत्र विभक्तेः मूलतः अजादित्वेपि आदेशस्य हलादित्वं भवति. हलादौ विभक्तौ पुरतः हलिलोपः इत्यनेन इद् इत्यस्य लोपे अकारः दृश्यते, तेन अस्मै आभ्याम् एभ्यः इत्यादीनि रूपाणि भवन्ति. साकत्वस्य इदं शब्दस्य तु अर्थात् इदम् इत्यस्मात् स्वार्थे अकत्वे गते इदकम् इति ज्ञायते. तस्य प्रथमाद्वितीयविभक्त्योः समानं, यथा अयं तथा अयकम् इमौ इत्यस्य स्थाने इमकौ केवलं ककारयोः श्रूयते. अयकम् इमकौ इमके, इमकम् इमकौ इमकान् इति. किन्तु तृतीयातः आरभ्य अनाप्यकः हरिलोपः इति सूत्रयोः प्रवृत्तिः न भवति. उभयत्र अकः इत्यस्य अककारस्य इदं शब्दस्य इति कृत्वात् ककारसहितस्य सूत्र एतत् सूत्रद्वयं न प्रवर्तते. सर्वत्र चिरादीनामः इति अर्थं, ततः दश्चैत्यनेन सकारस्य स्थाने मकारः, इदक इत्यस्य स्थाने इमक इति भवति. इमकेन, इमकाभ्याम् इमकैः इत्यादि अकारान्तः पुलिङ्गः इमकशब्दः यथा स्यात् तथा रूपाणि भवन्ति इति साधारणस्य इदं शब्दस्य विषयः. अन्वादेशविषये तु उन्वादेशः नाम तथा एकं कार्यं साधयितुम् उपादस्य कार्यान्तरं साधयितुं पुनः उपादानं, द्वितीयः उपयोगः तस्य सर्वनाम्नः इति. तदा किं भवति इति चेत् केवलस्य इदं शब्दस्य अर्थात् अकग्रहितस्य इदं शब्दस्य द्वितीया टा ओत् द्वितीया विभक्तौ अम् औषत् तथा टा ओत् इति पञ्चसु विभक्तिषु एनादेशः भवति. एन इति आदेशः, इद इत्यस्य इदम् इत्यस्य स्थाने एन इत्यादेशः, तेन एनम् एनौ एनान् एनेन एनयोः इति पञ्चरूपाणि सिद्ध्यन्ति अन्वादेशे. अत एव इदं शब्दस्य रूपलेखनसमये इदम् इमम् एनम् इमौ एनौ इमान् एनान् इति लिखन्ति, तत्र विकल्पः नास्ति. इट् इस् नाट् एन् आप्शनल् फार्म्. द फस्ट् टैम् यु से वि यूस् इमम् एण्ड् अन्वादेश वि यूस् एनम्. अन्यासु विभक्तिषु, तृतीयादिषु हलादिषु विभक्तिषु अन्वादेशे अश् इत्यादेशो भवति, इदमोन्वादेशे शरदात्तृतीयादौ सूत्रेण. किन्तु रूपे भेदः न दृश्यते. अन्वादेशाभावे हरिलोपः इत्यनेन इद् इत्यस्य लोपे अकारः शिष्यते. अन्वादेशे कृते अश् इत्यादेशेपि अकारः भवति इत्यतः रूपे व्यत्ययः न दृश्यते तृतीयादिषु फलादिषु उपपत्तिषु. अत एव अनेन येनेन आभ्याम् एभिः इत्येकमेव रूपम् अस्ति, किन्तु तत्रापि अन्वादेशविषये अपि तदेव रूपं भवति इति मन्तव्यम्. अकस्सहितस्य इदं शब्दस्य तु अन्वादेशे द्वितीया ता ओत् अम् औषस् ता ओत् इति पञ्चसु विभक्तिषु पुनः एनादेशे एव भवति. तेन इमकम् एनम्, इमकौ एनौ, इमकान् एनान्, इमकेन एनेन, इमकयोः एनयोः इति पञ्चरूपाणि. द्वितीयादिषु हलादिषु तु अत्र भेदः अस्ति. प्रथमोपयोगे अर्थात् अन्वादेशाभावे यथा इदानीम् उक्तं हलिलोपः इत्यस्य प्रवृत्तिः नास्ति अकस्थितस्य, केवलं तदाद्यत्वं दश्च इति दस्यमः, तेन इमकाभ्याम् इमकैः इति रूपम्. अन्वादेशे तु इदकम् इत्यस्य स्थाने अश् इत्यादेशो भवति. अश् इत्यनेन अकारः आदेशो भवति, तेन आभ्याम् एभिः अस्मै इत्यादि इदं शब्दवद् रूपाणि भवन्ति. So that is in essence the thing about idam shabda. Idakam the akat form is rarely used, so when we are using it maybe we do not have to worry about it. Kintu kadachit prayoge drishyate chet katham iti jnatam. Tatah makarantah pullingah tatra rajan shabdah. Supratyayare उपधादीर्घः सर्वनामस्थाने जातं बुद्धौ इत्यनेन उपधादीर्घः हल्नियादिना तु लोपः नरोपः प्रातिपदिकान्तस्य. राजन् अस्ति उपधादीर्घे, राजान् उपत्रयस्य लोपे राजान्, न लोपे राजा इति प्रथमैकवचने रूपम्. सम्बुद्धौ तु उपधादीर्घः न भवति. सर्वनामस्थाने च असम्बुद्धौ इति उक्तस्मात् लोपः नास्ति, क्षम्यता उपधादीर्घः नास्ति. हलिन्यादिना लोपो भवति, हे राजन् इत्यस्ति. नञ् सम्बुद्ध्योः निषेधात् न लोपो न भवति. णौ सम्बुद्धौ च परे णस्य लोपो न भवति इति उक्तस्मात् नकारस्य लोपः नास्ति, हे राजन्. न नि सम्बुद्ध्योः इति उक्तं. सम्बुद्धेः उदाहरणं हे राजन्. णौ परे णौ परतः न लोपनिषेधस्य उदाहरणं भवति वेदे परमे व्योमन्. व्योमन् इत्यस्मात् नीप्रत्यये कृते तस्य सुपांसुलुक् इत्यादिना लोपे. इदानीं प्रातिपदिकसंयुक्तं यत् पदम् इत्यादिना पदसंज्ञा विद्यते, नस्य लोपः स्यात्. णौ परतः प्रत्ययलक्षणेन नीप्रत्ययमानीय णौ परतः न लोपो नास्ति इति उक्तत्वात् नकारस्य लोपो न भवति, परमे व्योमन् इति रूपं साधितम्. इदानीं तत्रैव एकं वास्तिकं विद्यते, णौ उत्तरपदे प्रतिषेधो वस्तु. कोऽर्थः? णौ विषये उत्तरे पदे परे नञ् सम्बुद्ध्योः इत्यस्य निषेधः वाच्यः इत्यस्य. न लोपः प्रातिपदिकान्तस्य इति न लोपः विधीयते, नञि सम्बुद्ध्योः इति न लोपस्य निषेधः, णावोत्तरपदे प्रतिषेधः इति निषेधस्य प्रतिषेधः, अर्थात् न लोपः भवति. तदा णौ उत्तरपदे उदाहरणं पश्यामः. कर्मणि तिला यस्य सः कर्मतिलः इत्यस्ति. कर्मन् नी तिल तु सप्तमे तत्पुरुषसमासः. कर्मन् इति नकारान्तं प्रातिपदिकं, तस्य सप्तमी अस्ति कर्मणि तिला इत्यतः. तिल तु तिला इति भवति, तदनन्तरं तत्त्वः भवति, ऐ हेव् नाट् शोन् दट्. किन्तु कर्मणि तिल सु इत्यस्ति. सुपोन्धातुप्रातिपदिकयोः इत्यनेन प्रत्ययस्य लोके कर्मन् तिल इत्यस्ति. इदानीं प्रत्ययलक्षणेन नि इति आनीयते, न नि सम्बुद्ध्योः. एक्चुलि हियर् इट् इस् प्रातिपदिकसमीकं यत् पदम् अमासः प्रत्ययलक्षणेन पदत्वमस्ति, सो अत्र नकारस्य लोपः स्यात्. किन्तु न ईसम्बुद्ध्योः ईप्रत्ययः अस्ति अतः नञसम्बुद्ध्योः इति निषेधे सति नस्य लोपः न स्यात् इति प्रत्ययलक्षणेन ईप्रत्ययमाश्रित्य नञसम्बुद्ध्योः इति लोपस्य निषेधे प्राप्ते वदति नञसम्बुद्ध्योः न लोपस्य निषेधे सति किं स्यात् कर्मन्तिल इति स्यात् कर्मतिल इति न भवति तदा उच्यते नौ उत्तरपदे युप्रत्यये पदे उत्तरपदे सति वेन् इट् इस् पार्ट् आफ् अ समास अण्ड् देट् इस् नीप्रत्यय तदा नञ् सम्बुद्ध्योः इत्यस्य इति निषेधस्य प्रतिषेधः विच् मीन्स् नञ् सम्बुद्ध्योः विल् नाट् अप्लै इन् केस् आफ़् समास इफ् इन् अ समास यु हव् सप्तमी विभक्ति अण्ड् देर् इस् अन् उत्तरपद in such a case this nahi sambuddhyoho will not apply therefore nakarasya lopaha bhavati nalopah pratipadikantasya ityanena nakarasya lope krute karmatila iti rupam bhavati evameva brahmani nishthah iti brahman nishtha iti samanam brahmanishthah iti brahman iti nakarasya lopaha bhavati inna samasa even if it is saptami because even if you have me, there will be lopa, nakarasya lopaha. Ataha nakaha, nahi sambudhyoho ityasya, nigrahanasya udaharanusvati, chandasyeva. It is only in the Vedas that you will find an example of for nigrahanasya. So now, coming back to Arajan. Arajan, au. सर्वनामस्थाने च सम्बुद्धौ सर्वनामस्थाने सर्वत्र उपधानितः भवति राजानौ राजा राजानौ राजानः हे राजन् इति दृष्टं हे राजन् हे राजानौ हे राजानौ पुनः राजानौ राजानौ सर्वनामस्थाने सर्वत्र उपधानितः भवति अतः राजन् इत्यस्मात् शत् प्रत्ययः अत्र उपधानीर्घः नास्ति लिखितम् इत्यनेन
वसुजी हेड् अ क्वश्चन् बट् ऐ विल् वेट् फार् यू टु कम्
रिगार्डिङ्ग् वाट् वि डिड् नौ
I think so. Vasuji, go ahead.
Hello. I have a general question on Anvadesha. The Anvadesha, the reference to the Sarvanama has the person or the object referred to has to be in the same sentence or in the same context?
The same context. It need not be the same sentence. I mean, it is. It has to be two different sentences. I mean, even though in the example he is shown with a comma, it is effectively two different sentences where you are taking up the, or you are referring to the person once, and then you are referring to it again for two different things. Okay.
For two different times, two different reasons.
The context is the same. Two different things. And then, as I said, it has to be like he says. अनेन व्याकरणम् अधीतम् एनं छन्दः अध्यापय स्टडी व्याकरण छन्दस् देर् आर् टु डिफ्रेण्ट् थिङ्ग्स् दट् आर् हेप्पनिङ्ग् कार्यान्तरं साधयितुं पुनः उपादानम् इति उच्यते
The next question I had is the Brahmanishtha kind of thing in the Saptami sense that samasa is what kind of samasa is that?
It is a Saptami Tatpurusha.
It is like the Tatrovapadam Saptami is some kind of thing.
Sorry, I did not hear it.
Tatrovapadam Saptami is some kind of thing.
No. Upapada is something different. Tatrovapadam Saptami is some is it's a completely different thing. That would be like a कुम्भं करोति इति कुम्भकारः दट् इस् एन् उपपदसमासः That is a completely different context. The sutra here would be Saptami Shaundam.
Saptami.
Acharya Nipunaha, Acharya Nipunaha.
Oh, thanks.
राजन द्वितीय भक्त बहुत कृते भसमीयादिषु यकारादिषु अजादिषु स्वादिषु कुक प्रत्ययावधि पूर्व भसमीय अजादि प्रत्यय अजादि प्रत्यय परे प्रकृतिभाग से भसमीयां सत्यां लोपो न अकार से लोप अन् इत्यस्य अकारस्य लोपः भवति भसंज्ञायां सत्यां भस्तेऽत्यधिकारे इदं तेन किं भवति राज् लि तस्य नकारस्य तोश्चनाश्चुः इत्यनेन सुत्वं भवति अकारसवर्गयोः षकारसवर्गाभ्यां योगे नकार जकारस्य योगे नकारस्य स्थाने सवर्गपञ्चमाक्षरः आदेशो भवति राज् नि तदेव उच्यते दीक्षितैः अलोपो नः श्चुत्वं तदेव कृतं तत्र कश्चन सन्देहः अलोपस्य स्थानिवद्भावः भवति वा कथं स्थानिवद्भावः स्थानिवदादेशः अनल्यविधौ इति उच्यते आदेशः स्थानिवत्य न तु स्थान्यलाश्रयविधौ तत्र सः स्थानी अकारः स्थानी अकारः अस्ति आदेशः लोपः अकारस्य लोप एव आदेशः स्थानिवद्भवति अकारवद्भवति नाम वि हेव् टु ट्रीट् इट् एज़् अकार बट् द सकारलोप इस् एन् अल्विधि स्थानिवदादेशः अनल्विधौ इति उच्यते अतः स्थानिवदादेशः इति सूत्रेण स्थानिवद्भावः न भवति पुनः सूत्रमस्ति अतः परस्मिन् पूर्वविधौ परनिमित्तः अजादेशः तत्र षट्प्रत्ययनिमित्तः अजादेशः अकारस्य लोपरूपः आदेशः स्थानिवद्भवति इति अतः परस्मिन् पूर्वविधौ इति सूत्रेण अगेन् इफ् यु पीपल् रिमेम्बर् अतः परस्मिन् पूर्वविधौ There is a question somewhere we if the Purva Vidhihi is it what is Purva Vidhihi? Purvasya Vidhihi is then Sthani Bhuta Adataha Purvasvena Drishtasya Vidhau Kartavya. When you are doing something, some karya for that which is before the Sthani, which means if the Jakara has some karya, the Akara would be Sthani Vattu. But here we are not doing any karya for Jakara, we are doing a karya for Nakara. Can we still use Adas Parasvena Purva Vidhau? Yes. Because Purva Vidhau is interpreted as two ways. One is Purvasya Vidhihi, Purva Vidhihi. Purvasmat Vidhihi. Purvasmat Parasya Vidhihi. When you are doing a karya for something which is para to the Purva. Purvasmat Parasya Vidhihi. We had this somewhere and somebody had asked for an example of that. So if you can remember Atha Parasya Purvavidhau and go back to it, now this will be clear. It need not be always Purvasya Vidhihi. It can also be Purvasmat Parasya Vidhihi. Arthate Dakaras Parasya Nakarasya Vidhau Kartavyepi Atha Parasya Purvavidhau Ittyanena Sthanivadbhavaha Bhavitum Arhati. Atha Sthanivadbhave Krute. If we use Atha Parasya Purvavidhau and do Sthanivadbhava, there is an Akara here. If we assume that there is an akara, we will not be able to do shtutva. So shtunashtu ityanena shtutvam na bhavet. Atahayava ityate naka allopaha sthanivat. Allopaha sthanivat na bhavati. Kimartham? Purvatratithe anusheta. Purvatratithe na sthanivat. Iti paribhasha vidyate. In case of atitha kanda, in case of shtupari, we cannot use shtanivadhava. Iti paribhasha vidyate. अतः अत्र स्थानिवद्भावः न भवति अल्लोकस्य स्थानिवद्भावः नास्ति दट् इस् वन् आक्षेप देर् ईस् वन् मोर् नापि बहिरङ्गतया सिद्धः यथोद्देशपक्षे षष्ठीं परिभाषां प्रति Chuttasya Asiddhataya. I think it is. It is Asiddhataya. Antaranga Bhavaya Vibhashaya. So this Vibhashakshepa was Akara is brought by Sthanivadhava and therefore we cannot do Chuttva because overruled saying in case of Purvatra Asiddha there is no Sthanivadhava. The second Akshepa is there is an Antaranga Bahiranga Bhava. Alloka is Antaranga and Sotsinashti is Chuttva is Bahiranga. If that is the case, Alloponaha is Bahiranga and Sotsinashti is Antaranga. Antarange Karya Kartavya Bahiranga Masiddham. When you are trying to do an Antaranga Karya, you have to treat the Bahiranga Karya as Asiddha. If Alloponaha is Bahiranga and Sotsinashti is Antaranga, then Soshtinashtuhu will not be able to see Alloponaha. That is, Alloponaha would be Asiddha for Soshtinashtuhu. Which means, according to Soshtinashtuhu, there is an Akara here, and therefore, its Chitva would not operate. But how is Alloponaha Bahiranga and Soshtinashtuhu Antaranga? That's the question. Asiddham, next line. Asiddham Bahiranga Antarange, iti parihasha Vishtasila, Sadeva. Now, Alloponaha iti Allopaha, Shastratayam Nimitti Kati Pravattaha. The Nimitta for Alloponaha is Shast. Actually, Bhasamya. Bhasamya depends on Ajati Pratyaya. This is Shastratayya. Chuttva, on the other hand, depends on what? It depends on Jakara and Makara, right? Which lie interior to the Pratyaya. It does not, whatever the Pratyaya, it does not care what is the Pratyaya. It depends only on there being Jakara and Nakara together. So, Allopa is depending on something external, which is a Pratyaya. Whereas Chuttva is not depending on it. Therefore, Allopa is Bahiranga, Chuttvam to Antarangam. So, Anaya Paribhashaya, Siddham Bahirangam Antarange iti Paribhashaya, Antarange Chuttve Kastake, Bahirangaha Allopa Asiddhaha. Allopa would be Asiddha to Chuttva. Which means Chuttva does not know that Akara Lopa has occurred. If Akara Lopa has occurred, there is still a no. Conditions for Chuttva are not satisfied. Which means Chuttvam Nasya. So Siddham Bahirangam Antarange iti Paribhashaya. Chuttvaha Chuttvam Nasya iti Akshetha. So that's the Mujjadare. Yathodesham Samya Paribhasham. This is another Paribhasha. What is it? I mean, this is an interesting paribhasha and how, I mean, there are two views on how samya and paribhasha operate. Kivartham samyanam paribhashanam va upadanam. Vidhisutra upakara. All samyas and paribhashas, they do not have an independent function. They exist to help the vidhisutra to operate. Right. Any samya or any paribhasha, its ultimate purpose is to help a vidhisutra to operate. Now, the question is, when we come to the operation of samya and paribhasha, there are two options. Okay. One view says, the samya and paribhasha stays where it is. A vidhisutra, whenever it requires the help of a samya or paribhasha, it will come to where the samya paribhasha is. I mean, when I'm saying it will come, it is not that the sutra will say that it will come. It is in our mind. Okay? Saying there is a samya sutra, vridhiradai, it is in the prasmadhyaya prasmam sutra. Vridhireti, the sutram to prasmadhyaya prasmavadayati. Vridhireti, it is the vridhisandhi, means the definition of vridhi. Okay, for it to operate, it needs to know what vritti is. So what will happen? That sutra vritti will approach vritti, which is in Prasmadhyaya Prasmapada, and take the definition of vritti, and then it will operate. Okay, so that is called third desham samya paribhasham, which means yasmin deshe samyanam paribhashanam upadeshaham tatraiva vichisutranam samyadhanam. All vidhisutras will approach that particular samya or paribhasha in its place, wherever it has been told in the Akkara Sthayi. and take its definition or a rule for interpretation. That is this view. Okay, there is an exactly opposite term, Paribhasha, which is Karyakalam Samya Paribhasha, which means the Samya Sutras and Paribhasha Sutras will move to where the Vidhi Sutra is. Which means Vichiradai Siti Sutram, Samya Sutram, if Yatra Vidhireti Iti Parishtam, Shastharjaya, Tatra Gatshati. That is, this sutra will go there, it will join with the Vritti Samya Sutra and then it gets the sutrasa of Vritti. So what it says. So both paribhashas are used. It is not like, I mean, some people use this and some people use that. Both, all Vyakaranas will use both in different contexts. Based on what we want, these two are very opportunistic paribhashas. Based on what is the end result we want, we decide whether it is Yatavadesha Paksha which is applying here or Karyakala Paksha. Okay. And then it seems a very weird thing to do for an exact Shastra like Vyakarana. But there are some things which can happen to justify the Prayoga. The ultimate aim of Vyakarana is to Prayoga Saranatha. Prayoga Saranatham Sanhaitum Kadasita Yatavadesha Paksha Shriyate Kadasita Karyakala Paksha. कुत्र यथोद्देशपक्षः सेवनीयः कुत्र कार्यकालपक्षः इति महाभाष्ये स्थितम्. सो नौ ऐ हाव् गिवन् द बेसिक् ऐडिया. ओके, इन् वन् केस् इन् यथोद्देशपक्ष द संज्ञासूत्र द परिभाषासूत्र स्टेट्स् वेर् इट् इस् एण्ड् द विधिसूत्र विल् अप्रोच् द संज्ञा परिभाषा एण्ड् टेक् इट्स् डेफिनेशन् आर् रूल्. इन् द अपोसिट् केस् इट् वुड् बी द अपोसिट्. लेट्स् नाट् कन्सिडर् दट् नौ बिकास् इट् वुड् बि कन्फ्यूसिङ्ग्. सो यथोद्देशं संज्ञा परिभाषा यस्मिन् देशे संज्ञानां परिभाषाणां च उपदेशः तत्रैव विधिसूत्राणां संनिधानम्. विच् मीन्स् नौ ऐ विल् टेल् यू वट् इस् द इम्प्लिकेशन् आफ् दिस् मीन्स् वेन् एवर् सूत्र विधिरादै विल् स्टे इन् प्लेस् एण्ड् आल् सूत्र विच् हाव् दट् पदावृद्धि विल् अप्रोच् विधिरादै देन् टेक् इट् डेफिनेशन्. वेन् दिस् इस् हेपनिङ्ग् when there is all sutras are approaching, Vridhiradesh will be able to view only those sutras which are in Sapara Saptadhyayi. Since Tripadi is Asiddha to Sapara Saptadhyayi, this Samya would not apply to any sutra which is there in Tripadi. Which means in effect, effectively in Yathodesha Paksha, Samya, any Samya or any Paribhasha would not apply to Tripadi. In the opposite case, in Karyakala Paribhasha, the Samyan Paribhasha would be operated even in the Tripadi. That is the final intent of Yathodesha Paksha and Karyakala Paksha. Now, since we are in Yathodesha Paksha, if there is a Paribhasha or a Samya in Sapara Saptadhyayi, it would not apply to any sutra which is there in Tripadi. Idanim Asmakam Paribhasha asti Asiddham Bahirangam Antarangye. There is a problem because it is not a sutra. Asiddham Bahirangam Antarangye iti sutram nasti. So how do we fix its position in the Ashtadhyayi? If it is a sutra, say Vridhiradai, so we can say its position is Prathamadhyaya, Prathama Pade asti. Kintu Asiddham Bahirangam Antarangye iti paribhasha sutram nasti. Sutram nasti che katham tasya sthana nirnayaha iti cheta. For every paribhasha, there is one sutra which will serve as a reference point or as a proof that the paribhasha exists. A paribhasha cannot be made independently of the sutra. Any paribhasha has its basis in some sutra of Panini. So we take that particular sutra as reference. Yani asiddham bahiranga mantarange iti paribhasha shashthadhyayasya vaha ut iti sutra patita. If you look at Mahabhashya, Bhashyakara has taken vaha ut as the reference or as the proof for this paribhasha, which you have already seen. If you go back to the lesson on Vishwava, just a few days before in Halanta, Karanta Pullingeshu Vaha Uchiti Sutra Asmabhihi Tatra Kruta Katham Asiddham Bahiranga Mantarange Ityukte Tatra Pravrittihi Iti. Ataha Asiddham Bahiranga Mantarange Iti Shashti Paribhasha Iti Ityukte. Its position is fixed as the same as of that of Vaha Ut, which is in the sixth. So, Asiddham Bahiranga Mantarange iti Shashthadhyaye asti paribhasha. Toshchanashchuhu iti sutram asti Ashtamadhyaye. So, Next slide, please. Now, Asiddham Bahiranga Mantarange does not, when both Allokanaha and Sroshinashtuha approach Asiddham Bahiranga Mantarange, Asiddham Bahiranga Mantarange will not use Sroshinashtuha. Antarange Svena Chikeshitasya Sutra Chakta, Sroshinashtuha Ityasyeva Asiddhatve. When there are two sutras approaching, Asiddham Bahiranga Mantarange, it will decide which is Bahiranga, which is Antaranga, and which it will say Antaranga is, will not see Bahiranga. Okay? Second, the Paribhasha itself is not able to view two sutras. According to the Paribhasha, there is only one sutra, which is Allokanaha. So it cannot decide which is Antaranga and which is Bahiranga. Doshchunashchuhu iti sutra siddhatve, Antaranga Bahiranga Nirnaya Eva Na Syat. Using this paribhasha, we cannot decide which is Antaranga and which is Bahiranga. Therefore, where are we? Where did we start? We go back to the slide and see Dikshita's pankti. It says, Napi Bahirangataya Asiddhaha. It says, Bahirangataya Doshchuna Allopaha Shtipvam Prati Na Asiddhaha. Kimartham? Yathodesha Pakshe. Yathodesham Samya Paribhasham Prati Pakshe. Shashthim Paribhasham Prati. సాష్ఠీ పరిభాష అసిద్ధం బహిరంగం అంతరంగే ఇది పరిభాషా ప్రతి స్టిత్వస్య అసిద్ధతయా స్టిత్వ ఇస్ అసిద్ధ టు దట్ పరిభాష అంతరంగా భావే అకార్డింగ్ టు దట్ పరిభాష ద అంతరంగ సూత్ర ఇట్సెల్ఫ్ డస్ నాట్ ఎగ్జిస్ట్ పరిభాషాయాః అప్రవృత్తే దేర్ఫోర్ దట్ పరిభాష విల్ నాట్ అప్లై హియర్ దేర్ఫోర్ అల్లోప ఇస్ నాట్ బహిరంగ విచ్ మీన్స్ స్టిత్వ కెన్ అప్లై దట్ ఇస్ వేర్ వి ఎండ్ అప్
I think the whole subject matter is pretty heavy, so it will
digest. Yeah, I know.
But yeah, I think you tried your best. Now you have to understand it.
Go through this again, and if you want, try and explain this again in next class. Or if somebody wants, we can try a different way of explaining it. But since the whole concept is new. And Karakala, it takes time to think. But instead, I try to explain. If you do not understand this at this point, there is no matter. You can just know the structure. It is important to know that there is a Allopanaha and there is this one. Anyway, nobody would actually get this doubt of Antaranga Bahiranga here by themselves. So, this is what we call in the Shastra. There are cases where there would be a Sandeha by itself. I mean, there are some obvious Sandehas which would arise. And there are many cases where the Shastrakara himself gives rise to doubt, which might not normally arise for a student at that stage, because the student does not know enough. So, we call this as Uthapya Samadhanam. We try to raise a doubt in the, not we, I mean, even I would not know this. The Shastrakara tries to raise a doubt in the learners and tries to give it Samadhanam. For the learner at that point, it might be difficult to appreciate the doubt itself. I mean, appreciating the question is essential for knowing the answer. So, as long as we do not understand the question, we'll obviously not understand the answer. And this is the case in many times in Shastra. I mean, even I, at this point of studying Kaumudi, I'm positive I did not know anything about this. So only after I actually studied the Paribhasha in Paribhasha in the Shekhara would these things make sense. So for now, you can either, I mean, you have the facility of listening to the recording again, you can try to listen to it again and make it clear, or you can leave it as Shravana Samskara. Someday, this thing will come back and things will be clear. Okay, if you still have questions, if you want me to explain any point, I would be glad to do so.
Soumyaji. Yeah. I have a suggestion here. Your excellent way of presenting sometimes extra visual aid.
Sorry?
The extra visual aid, the usual visual aid you use is excellent. You need some extra visual aid to Akshara as Papa. And
yeah,
they notate them as this is inside the Anga and Paranga, outside the Abhaya and that kind of thing. Maybe like a kindergarten approach. And also, as you said, question itself is not very clear sometimes in the sense, not because.
Mm-hmm. Yeah, I understand that. I mean, it's happened to me many times in the shastra. I mean, it will happen. But at any point, I mean, if I'm studying the Mahabharata now, there will be many things where I cannot appreciate the question. And that is why I cannot even move to understand the answer. But, yeah, that is why it is just the teacher, and the teacher says it sometime later. I mean, there's actually a joke which goes around this, that there's a shastra teacher which says, everything, Pashtam Agre Bhavishyati. So, a teacher who can gloss over anything saying, okay, it will be clear in the future. That is not, that should not be the case always. But there are some points where there is a limitation where it is, however much the teacher tries or however much the student tries, it might not be possible.
Unfortunately, three quarters are waiting for the time for us.
I hope everybody knows that. Acharyat padam adhatte, padam shishyah swame bhaya. Padam sabrahmacharihi, padam kalakramenucha. He says, Acharyat padam adhatte. Of any body of knowledge that exists, the student can get only one quarter of it from the teacher. Okay? However good both the student is or the teacher is, only quarter of the knowledge, 25% is transferred from the teacher to the student. Padam shishyaha swame bhaya. The own intelligence of the student and of course his hard work is essential for grasping 25% more. Padam sabrahmacharihi. And a quarter is gained from fellow students. Even if there is one student sitting and studying, never useful. You have to discuss with your students because they are at the same level. The teacher might be at a different level and she might not be able to understand what your position is. The students are in your position approximately and they will know, they might have similar doubts, they might have answers for some of them. Padam sabrahmacharihi. Even with all this, it is impossible to understand 100% at that time. Padam kalakramena. The rest of it requires time for thinking for you to know some other things before you understand this thing.
Unfortunately, all the three quarters are waiting for the time to heal. For some of us.
Okay, so to move on, Himaput, Himapinasti, Rajan, Shastrasteha, Akarasya Lopaha, Loponaha, Jakara Makaraya Sanyavale, Nakarasya Sthane, Yataha, Shtutvena. Once we are there, it means Janyor Dnyaha, Rajyaha. We have Raj, Yin. A Sanyoga of Jakara and Nyakara itself is Dnya. Dnya is a special Sanyoga, it's not an independent letter. Jakara and Nyakara yo Sanyoga eva Dnyakara. Tasya Lekhanepya Vishishtyamasti, Uttaranepya Vishishtyamasti. Ataha, you have Rajyas. Tasya Shodhu iti Rutve, Rajyar. Rasanayur Visarjaniyaha Rajyaha Rajanam Rajanam Rajyaha. Rajan A Punaha Ghatamya Allopunaha Iklallopaha Toshchun Ashtuhu Ityanena Shtutvam Rajya. So Shastrasya Rarabhya Sarvatra Ajarishu Prateheshu Allopaha Shtutvam Rajyaha, Rajye, etc. Rajyoho, Rajyam, Sarvatra. Aladishu Prateyeshu Kimhavati. Rajan Bhyam. Atra, Vadishu Asarpanamasthane, Adasamya Parasamya. Parasamyayam Satyam, Nalopas Prasiparikantasya. Prasiparikasamyakam, Yath Padam. Tadam tasya vakarasya lopahasya. Ustyanena नकारस्य लोपे राजभ्यां राजभ्यां राज्य राजभ्याम् इत्येव रूपम्. तत्र कश्चन सन्देहः, नकारः युक्तः इदानीम् अकारः अस्ति सुपि च इति दीर्घः भवति वा इति प्रश्नः. सुपि च अतोऽस्य दीर्घः स्यात् इयाने सुपि किल रामभ्यां विक्रमेण रामाभ्यां राजभ्याम् इत्यत्रापि सुपि च इति दीर्घः भवति वा इति न भवति इति उत्तरं. किमर्थं न भवति विद्युत् प्रतीतिरम् किमर्थमत्र सुपि च इति दीर्घः न भवेत्?
Because of the following sutra is going to negate it.
No. I would not ask the question. No, you already know the answer. It is on the slide. The following sutra needs, we need it for a different reason, but the original reason is obvious. It should be obvious by now. An answer is on the slide. Kimartham Supi Chaya Thiri Sahana Pavati.
But the slide says Supicha iti Dirga Prapte. So it is.
Yeah, I mean, it's not so obviously, I've not given the answer there. But I think, you can deduce it from something on the slide.
It's not so obvious.
So nalopa is asiddha. Purvatra asiddha means nalopa asiddha. Supicha will not know that nakara has been deleted. According to Supicha, it is rajan bhyam. Aha Supicha is pravrittinasya asiddhatvam purvatra. But in case of nalopa, purvatra asiddha is a bit complicated. Atra rajan bhyam atra nalopa asiddhatva dirghaha na bhavati. तस्य समासः स्यात् राज्ञः आदेशः. आर्डर् आफ् द किङ्ग् राज्ञः आदेशः इति षष्ठीकृतः. राजन् आदेशः सूच्यस्ति प्रत्ययस्य लोपे. यु हव् राजन् आदेश न लोपकारपरिकान्तस्य अपि नकारस्य लोपः. यु हव् राज आदेश सवर्णदीर्घसन्धिः कर्तव्यः क्रियते राजादेशः इति रूपम्. इवन् दो सवर्णदीर्घसन्धिः इन्दियन् सपादसप्ताध्यायी and nalopa should actually be asiddha. Nalopasya asiddhatve savarnadirghasandhihi na syat. Into kriyate rajadeshah iti rupam bhavati. So there are certain cases where nalopa is asiddha and there are certain cases where nalopa is not asiddha. Ata eva agrimam sutram asti kutra nalopaha asiddhaha iti prashnaha. Nalopaha svara samya uttidhushu svati iti sutram. परत्रयं विद्यते नलोपः सुप् स्वरसंज्ञासिद्धिषु श्रुति. सूत्र इमीडियट्लि फालोस् पूर्वत्रासिद्धं. पूर्वत्रासिद्धम् इत्यतः असिद्धम् इति अनुवर्तते. जनरलि हिते पूर्वत्र असिद्धं. नलोपः एषु विषयेषु असिद्धः. नलोप इस् असिद्ध ओन्लि इन् दि फालोयिङ्ग् केस्. नलोपस्य सूत्राणि सर्वाणि त्रिपाद्यामेव सन्ति किन्तु सर्वत्र तेषां सपादसप्ताध्याय्याम् असिद्धत्वं नास्ति. Even though the sutras of Nalopa lie in Tripadi, it is not universally asiddha to Sapara Saptadhyayi. It is asiddha only to a particular set of karya. Keshanchana karyanam vishaye nalopaha asiddha, keshanchana karyanam vishaye na asiddha. तुग्विधौ स्वरविधौ सम्याविधौ कृतितुग्विधौ च नलोपः सिद्धः एष विषयेषु नलोपः सिद्धः तुग्विधौ सुप्रत्ययं निमित्तीकृत्य कश्चन व्यक्तिः क्रियते चेत् नलोपः सिद्धः स्वरविधौ स्वरः स्वरविधः अस्ति उदात्तानुदात्तस्वरितानां विधानं भवति तेषु विषयेषु नलोपः असिद्धः सम्याविधौ सम्यासूत्राणि सन्ति सम्यक् क्वचित् भवति तत्र असिद्धः कृतिसुग्विधौ सुप्रत्यये सत्त्वस्य तिथि कृतिसुक् इत्यादिना सुक् सुगागमः विधीयते तस्मिन् विषये नलोपः असिद्धः In these four cases, nalopa is asiddha. For anything else, nalopa is siddha. Nanyatra ragashvaha ityadav. So they are saying, when you have a samasa, rajan ashva ityasti nakarasya lope, raja ashva. Atra nalopaha na asiddhaha. Because savarna dita salhi does not fall into these categories. It is not a subvidhi, it is not swara, it is not samya, it is not kriti subvidhi. Therefore, savarna dirgha sandhiti bhavati, nalopaha na asiddhaha. Nalopa is not asiddha for such cases. Raja shvaha ityadu nalopasya asiddhatvam nasti. Kintu udaharanam asti, rajyaha ashvaha, iti shashti tatpurushaha. Rajan nas ashva supasti, upodhata prasadikayoku vichyanena prasayasya lopaha. राजन् अश्व नलोपस्वादिपरिकान्तस्य इत्यनेन अकारस्य लोपे राज अश्व अत्र नलोपस्य असिद्धत्वे सवर्णदीर्घः न स्यात् इफ् नलोप वर् असिद्ध वि कुड् नाट् डु सवर्णदीर्घ बट् सवर्णदीर्घ इस् डिसैड् देर्फोर् वि से नलोप इस् नाट् असिद्ध इन् दिस् केस् बिकास् सवर्णदीर्घसन्धि डस् नाट् फाल् इन् टु दीस् केटगरी इट् इस् नाट् सुग्विधि स्वरविधि सम्याविधि आर् कृति सुग्विधि बट् अवर् करेण्ट् थिङ्ग् Next one, Raja Bhyam, Supi Cha, Sutra itself has Supi, it's a Subvidhi, it depends on a Supratyaya. Supi Cha Iti Dirghaha Subvidhihi, Subvidhau Nalopaha Asiddhaha. Sathya Supi Cha Iti Sutra Sthi Vrishtya Nalopaha Asti, Tena Dirghaha Nabhavati, Raja Bhyam, Deva Rupam. Iti Asiddhattvata Atvam, Supi Cha Iti Nena Atvam, Nama Dirghaha Nabhavati, Etvam Aishvam Chana. एकम् ऐस्त्वं कुत्र भित् प्रत्ययः राजन् भित् इत्यस्ति राज भित् राम भित् इति स्थिते किं भवति अतो भित् ऐ इत्यनेन ऐतादेशे रामैः इति भवति अत्र तु ऐस्त्वं न भवति किमर्थम् अतो भित् ऐ इत्यपि सुब्विधिः सुब्विधौ नलोपस्य सिद्धत्वात् ऐस्त्वं न भवति एवमेव भ्यत् राजभ्यः रामेभ्यः इत्यत्र तु भोजने झल्येत् इत्यनेन एत्वं भवति राजभ्यस् इत्यत्र तु सुविधित्वात् नलोकस्य सिद्धत्वे एत्वं न भवति इत्यसिद्धत्वात् आत्वम् एत्वम् ऐत्वं च न तेन किं कानि रूपाणि राजभ्यां राजभिः राज्ञे राजभ्यां राजभ्यः राज्ञः राजभ्यां राजभ्यः राज्ञः राज्ञोः राज्ञां सर्वे प्रत्ययाः अजादयः आम् विभाषा निश्योः अल्लोपो नः विभाषा निश्योः अकारस्य लोपः नौ परे नीप्रत्ययपरे विकल्पेन अल्लोपः भवति तेन अल्लोपे कृते राज्ञी इति रूपम् अल्लोपे अल्लोपस्य अभावे राजनि राज्ञी राजनि राज्ञोः राजसु नेक्स्ट् लै Maybe you should take it step by step. So the first, if you have the form, I hope everybody knows. So the first pare, Atam Buddhau Sarvanamasthane pare, Upadhyayaha Deedghaha Bhavati. You can see whatever is in green, Raja Rajanau Rajanaha Rajanam Rajanam. Atam Buddhau Sarvanamasthane, accepting Sambuddhi, Sarvatra Sarvanamasthane Atam Buddhau, Ityanena Upadhyayaha. सम्बुद्धौ किं भवति नञ् सम्बुद्धोः इति निषेधात् नलोपः नास्ति देर् इस् नीदर् उपधादीर्घ नार् नलोप इह हे राजन् षत् प्रभृतिषु स्टार्टिङ्ग् फ्रम् षत् अजादिषु प्रत्ययेषु अल्लोपो नः इत्यनेन अकारस्य लोपः श्चुत्वं च भवति राज्ञः राज्ञा राज्ञे राज्ञः राज्ञोः राज्ञाम् इत्यत्र णौ तु विकल्पेन ईप्रत्यये परे विभाषानिष्योः इति विकल्पेन अल्लोपः तेन रूपद्वयं राज्ञी राजनी तत्प्रभृतिषु हलादिषु इत्युक्ते हलादिविभक्ति नलोपप्रातिपदिकान्तस्य इत्यनेन मकारस्य लोपः राजभ्यां राजभिः राजभ्यः राजसु इति रूपः
Swamiji, in that slide, what is the example for the tug, kriti tug you said?
There are kriti tug vidhi is where they have kri dhatu and you have ya pratyaya. So, but ya yat is a krit pratyaya. So there is a tug agama, it becomes kritya. Kri is a dhatu and ya is a pratyaya. There is an extra pakara added, which is called kritya. Similarly, it becomes bhritya, etc. Now, if there were nakara there, I mean, I cannot recall immediately the example where this asiddhartha would apply. But the condition is that if there is a nakara and the nakara has been deleted, it will become a hakara. Akara, right? So now, this akara will not get the tugagama. If it is a hrasva, actually there should be a tugagama. But after nalopa, if there is a hrasva remaining, it would not get a tugagama. If the case, the exact example I will have to look.
That's fine. I just want to.
And the Kanamanama does not give examples here. So we will look at the lesson. Tattvabodhana gives an example. There is Vratrahan and Chatram. There is a Samasa and there is a Sutra. Vratrahan is the Pratikarika and there is a Chatra. So Nakarasya Lope Kute, you have Vratraha, Chatra. Okay. Idanim Kim Bhavati. Nalopasya Asiddhatve Sati. So Hrasvaha Asti, Hrasvasya Tugagamaha Nasya. So then it will be Vratraha Chatra. Kintu Kriti Tukvidhu Nalopaha Na Asiddhaha. Which means this sutra will know that nalopa has occurred. Therefore, there is tugagama. Here we have vritraha chatram. Vritraha bhyam. We'll see exactly. It will come later. We have vritrahan bhyam. How do we have? Vritrahan is derived from krit pratyaya. So vritrahabhyam etc. Nalope krite tugagamaha namhavati. Eti udahana. We have vritrahan bhyam. There is a krit pratyaya which was originally on vritrahan. Based on that, after nalopa, can we do a tuk is the question. Into krite tukvidho nalopaha siddhaha. Therefore, there is no tugagama and the form would be vritrahabhyam. Any other question? Let's stop here. In action of one nine, I have a meditation of the same yakar and open the play of any name of a house. We train on a prepared that is beef for the past year, and the yakar and the hands of all the young rest of them.
I have a question regarding the other class on the Ashtadhyayi Parijaya. You are sending me emails and I thought I will wait until I understand the days on which the sessions can happen and the nature of the class, etc. In the meantime, they did send web link to go to the Pathshala directly. And I did go, maybe I was mistaken, I thought I should register into the Pathshala first. So I provided the information, and then when I went, it said that you are not registered for any class, and then I went to the particular site for the class, and it asked for the same information. I filled in the information, and it said your registration already exists. I didn't understand that. I don't think I completed the task.
Sorry,
there were breaks
in between. What exactly
is the
problem in the registration?
Yeah, I don't think, even though I think I filled out the information, I didn't get any response. And maybe there is a disconnect there. So is there a simple way of writing an email to somebody?
I mean, you can always email to, there's an address, sanskritfromhome@isaacweb.com. There's an email address given in the contact details. So you can, but I'll look it up. Anyway, your registration, I'll see it. I'll see what's happening.
Do you know any more details that people are getting registered?